राम गीता जी का पाठ 14वां अध्याय श्लोक 21 से अध्याय समाप्ति तक। राम
वसुदेव सुसंदेवम् पंचजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्। अर्जुन उवाच कैर्लिङ्गे श्रीमुनानेपानपीको भवति प्रभो किमाचार कथं चैतांश्रीमुनानतिवसते श्रीभुवनवसे प्रकाशञ्च प्रभुक्षन्तो मोहमेव च पाण्डव न दृष्टि संप्रभुक्तानि न निवृत्तानि कांक्षति पुरा श्रीनवदासीनो चाल्यते गुणावर्तन्तरित्येव योगतिष्ठति मन्दते समदोकसुखः स्वस्थ समदोशास्मकाञ्चने तोर्यप्रिया प्रियो शीर मानापमानयोस्तो सूर्यो मेत्रारिपक्षयो सर्वारम्भपरित्यागीनाशीत स उच्यते मांसयो व्यभिचारेण भक्तियोगेन सेवते सगुणान् समति चैतान् ब्रह्मभूयाय कल्पते ब्रह्मणोऽधि प्रतिष्ठाः मन्दितस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च ॐ सत्सदस्यविद्यायां दुःखासे
श्रीकृष्णार्जुनादिगुणत्रयभागुणाम् पंशजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरि शरणम् 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 हरे 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 शरणम् हरी शरणम।